देवी उवाच देव देव महादेव त्रिकालज्ञ महेश्वर करुणाकर देवेश भक्तानुग्रहकारक अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ईश्वर उवाच देवी साधु महाभागे महाभाग्यप्रदायकम् सर्वैश्वर्यकरम् पुण्यम् सर्वपापप्रणाशनम् सर्वदारिद्र्यशमनम् श्रवणात् भुक्तिमुक्तिदम् राज्यवश्यकरम् दिव्यम् गुह्यात् गुह्यतमम् परम् दुर्लभम् सर्वदेवानाम् चतुष्षष्टिकलास्पदम् पद्मादीनाम् वराम् तानाम् निधीनाम् नित्यदायकम् समस्तदेव संसेव्यम् अणिमाद्यष्टसिद्धिदम् किमत्र बहुनोक्तेन देवी प्रत्यक्षकारकम् तव प्रीत्याद्य वक्ष्यामि समाहितमनः शृणु अष्टोत्तरशतस्यास्य महालक्ष्मीस्तु देवता क्लीं बीजं पदमित्युक्तं शक्तिस्तु भुवनेश्वरी